इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य सिंगापुरदेशीयेन प्रधानमन्त्रिणा लॉरेंस वोंग इत्यमुना साकं संवादं विधास्यति। उभौ नेतारौ भारत सिंगापुरयोः संरचनागत सहभागित्वस्य प्रगतिम् अपि अवलोकयिष्यतः, अपि च पारस्परिक कल्याणस्य क्षेत्रीय वैश्विक प्रसंगेषु निजविचाराणां विनिमयीकरिष्यतः। अवधेयं वर्तते यत् ब्रुनेई देशस्य सफलयात्रानन्तरं श्रीमोदी ह्यः लॉयन सिटी सिंगापुरदेशं सम्प्राप्तवान्। सिंगापुरदेशीयः प्रधानमन्त्री ह्यः सायंकाले एकस्मै रात्रिभोजाय श्रीमोदिनः आतिथ्यं कृतवान्। एकस्मिन् सामाजिक संचार सन्देशे श्रीमोदी अवोचत् यत् श्रीवोंग इत्यनेन सह अनेकेषु विषयेषु चर्चाः समनुष्ठिताः। प्रधानमन्त्री मोदी अद्य सिंगापुरस्य राष्ट्रपतिना अन्यैः च गणमान्यजनैः सह साकम् उपवेशनं करिष्यति। श्रीमोदिनः सिंगापुरस्य उद्यमानां प्रमुख कार्यकारी अधिकारिभिः सह मेलनं सुनिश्चितम् अस्ति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य नवदिल्ल्यां द्व्यशीतिः अध्यापकेभ्यः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य राष्ट्रिय शिक्षक पुरस्कारं प्रदास्यति। ध्यातव्यमस्ति यत् डॉ सर्वपल्ली राधाकृष्णन वर्यस्य जयन्त्यवसरे प्रतिवर्ष सितम्बर मासस्य पञ्चमे दिनांके राष्ट्रिय शिक्षक दिवसः परिपाल्यते। केन्द्रीय शिक्षा मन्त्रालयेन निगदितं यत् राष्ट्रिय शिक्षक पुरस्कारस्य उद्देश्यं देशस्य केषाञ्चित् शिक्षकाणाम् अद्वितीय योगदानस्य उत्सवाचरणम् अथ च तेभ्यः शिक्षकेभ्यः सम्मानं प्रदानम् अस्ति, यैः न केवलं विद्यालयीय शिक्षायाः गुणवत्तायां परिमार्जनं कृतम् अपितु बालानां जीवनमपि सुदृढीकृतम्। विद्यालय शिक्षा साक्षरता विभागेन अस्य वर्षस्य राष्ट्रिय शिक्षक पुरस्काराय 50 शिक्षकाः चिताः। एते शिक्षकाः 28 राज्येभ्यः केन्द्रशासित प्रदेशेभ्यः त्रिभ्यः 6 संस्थानेभ्यश्च समागताः सन्ति। एतदतिरिच्य उच्चशिक्षा विभागस्य 16 शिक्षकाः, कौशल विकास उद्यमिता मन्त्रालयस्य च 16 शिक्षकाः सम्मानिताः भविष्यन्ति। तेभ्यः शिक्षकेभ्यः योग्यता प्रमाणपत्रेण सह 50,000 रूप्यकाणि एकं रजत पदकं प्रदास्यते। केन्द्र प्रशासन त्रिपुरा सर्वकार नेशनल लिबरेशन फ्रंट ऑफ त्रिपुरा ऑल त्रिपुरा टाइगर फोर्स इत्येतेषां प्रतिनिधिनां मध्ये ह्यः नवदिल्ल्यां एकस्मिन् सहभागिता ज्ञापनपत्रे हस्ताक्षरं जातम्। अत्रावसरे केन्द्रीय गृहमन्त्री अमितशाहः, त्रिपुरायाः च मुख्यमन्त्री मणिकसाः उपस्थितौ आस्ताम्। अत्रावसरे प्रवदन् केन्द्रीय गृहमन्त्री सूचितवान् यत् हर्षस्य विषयो वर्तते यत् एनएलएफडी एनटीटीएफ इत्युभाभ्यां शस्त्राणि त्यक्तानि, त्रिपुरायाः च विकासं प्रति निजभावः अपि प्रकटितः। ऋतुविज्ञान विभागेन आगामिषु 7 दिनेषु कोंकण, गोवा, गुजरात, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, उत्तर पूर्व राजस्थानेषु अत्यधिक वृष्टेः पूर्वानुमानं कृतम्। विभागेन आगामि सप्ताहे पश्चिम मध्य पूर्वोत्तर भारते, तटीय कर्नाटके, केरले, माहे, लक्षद्वीपे, अण्डमान निकोबार द्वीपसमूहे, उपहिमालयीय पश्चिमबंगे च व्यापक रूपेण मध्यमवृष्टेः संभावना अपि प्रकटिता। पेरिस नगरे प्रवर्तमानासु पैरालंपिक क्रीडासु भारताय गौरवः विषयो वर्तते यत् राष्ट्रेण 4 पदकानि समर्जितानि इति वार्ताः।